नमस्कार पूर्णिमा जय
नमस्कार भगिनि
प्रकाश खलु
नमस्कार
आदिम श्लोकं पठतु
एनाक्षरसमां सारि सरस्वति नमस्तभ्यं वरदे कामरूपिणी विद्यारम्भं न भविष्यामि सिद्धिर्भवतु मे सदा एनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृष्णं पाणिनि व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाचकारं वरदतिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं गुरुभ्यो नमः धन्यवादः
नमस्कारः धन्यवादः अस्तु अत्र गतवर्गे किं किं दृष्टवन्तः चेत् अत्र सूत्रसहिता दृष्टिः किं किं भवति इति पाणिनिना किञ्चित्तं भूसतायं कथं भवति इति अनन्तरं शप् वितरणप्रत्ययम् अनन्तरं गुणस्य चिन्तनक्रमः लशकोत्तस्य अलङ्क्यं तस्य लोपः इत्यनेन यत्र तिङ्गशित्य सार्वधातुकं भवति इत्यनेन शप् प्रत्ययः अपि सार्वधातुके भवति इति अनन्तरम् एतत् शपप्रसिद्धविहिते अत्र यत्र स्थापितविधानं भवति तत्र सार्वधातुकसंज्ञा प्राप्नोति अनन्तरम् अत्र सार्वधातुकयोः आर्धधातुकयोः इत्यनेन गुणः भवति अनन्तरम् एचो यव यावः इत्यनेन अवादेशः भवति ति इति विवक्षा अस्ति कीतः अन्ति प्रथमपुरुष एकवचनविवक्षा अस्ति अतः ति योजनेन वर्णमेलनेन आहत्य अत्र भवति इति अन्तिमरूपं दृष्टवान् दशपथचिति पूर्वमेव दृष्टवन्तः किञ्चित् सार्वधातुकमपि अनन्तरम् अत्र भूसतायं किमर्थम् अत्र आगच्छति इति यस्य धातुः अन्तिमवर्णः इ ऊ वा सः धातुः ईगन्तधातुः एतदेव इक् अस्ति चेत् अत्र गुणः भवति सार्वधातुक अर्धधातुकयोः अपि दृष्टवन्तः गुणः भवति इति अनन्तरं भू अति तिंशत् सार्वधातुकम् इत्यनेन सूत्रेण सार्वधातुकसंज्ञा भवति एतत् दृष्टवन्तः अत्र परिभाषासूत्राणि अस्ति परिभाषासूत्राणि एकवारं षड् परिभाषासूत्राणि अत्र प्रकाश पूर्णिमा पठति एव पाणिनिः सूत्राणां द्रष्टुं शक्यते खलु
आं भगिनि पठामि पाणिनिसूत्राणां लघुत्वम् इच्छति तदर्थं वारं वारं सूत्रेषु यत्र समानप्रकरकसन्देशः अपेक्षते तस्य वारं वारं आवृत्तेः स्थाने परिभाषासूत्रं पाणिनिना विरच्यते इमानि सूत्राणि कस्यचित् सूत्रात्मस्य पूरणस्य सहायं कुर्वन्ति यथा सार्वधातुक अर्धधातुकयोः इति सूत्रस्य अर्थपूर्णार्थं त्रीणि परिभाषासूत्राणि अपेक्षितानि इको गुणवृद्धिः प्रथमाध्याये प्रथमपादे तृतीयसूत्रम् इति सूत्रेण इक् स्थानि भवति यत्र स्थानि नो न उक्तं येन इति तदन्तस्य प्रथमाध्याये प्रथमपादे द्विसप्ततिसूत्रविशेषणं तदन्तस्य अपि भवति स्वस्यापि भवति सः अन्ते यस्य सा वदन्तः तस्य तदन्तस्य बहुभिः विधीयते इति विधिः येन तृतीयान्तः विधिः प्रथमान्तं तदन्तस्य षष्ठ्यन्तं द्विपदमिदं सूत्रम्। स्वरूपं शब्दस्य शब्दसंज्ञा प्रथमाध्याये प्रथमपादे अष्टषष्टिसूत्रं षडशीतिसूत्रम् इत्यस्मात् स्वं रूपम् इत्यनयोः अनुवृत्तिः विभक्तिपरिणामः इत्यनेन षष्ट्यन्ते भवतः स्वस्य रूपस्य अनुवृत्तिसहितसूत्रं येन विहितं तस्य स्वस्य रूपस्य। अस्तु वा भगिनि, अग्रेपि पठामि वा?
आमां पठतु, इतः पर्यन्तं न आगतवन्तः।
विधिः इत्युक्ते कार्यं सार्वधातुकार्थधातुकयोः सप्तमाध्याये तृतीयपादे चतुरशीतिः सूत्र इति सूत्रे विधिः अस्ति गुणकार्यः गुणः विधीयते। कस्य गुणः? इकः वर्णस्य। तर्हि येन विधि तदन्तस्य प्रथमाध्याये प्रथमपादे द्वयशीति द्वासप्तशी इति सूत्रे अत्र येन इत्युक्ते हित्वर्णेन, हित्वर्णेन गुणकार्यं विधीयते। येन हित्वर्णेन गुणकार्यं विधीयते तदन्तस्य इदन्तस्य शब्दस्यापि गुणकार्यं विधीयते। अलोन्त्यस्य प्रथमाध्याये प्रथमपादे द्विपञ्चाशत् सूत्र षष्टिविभक्तिद्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः सः आदेशः अन्त्यस्य अल्वर्णस्य एकवर्णसमूहस्य अन्ते ओकारः अस्ति चेत् तस्य अनन्तरं कोऽपि स्वरः अस्ति चेत् तर्हि अकारस्य स्थाने औ आदेशः भवति। ओ सारि,
कुत्र पठति? अलोन्तस्य।
ओ सारि, अलोन्तस्य षष्टि प्रथमाध्याये प्रथमपादे दश पञ्चाशत् सूत्र षष्टिविभक्तिद्वारा पदस्य स्थाने आदेशः प्राप्तः सः आदेशः अत्यस्य अल्वर्णस्य स्थाने भवति, अन्त्यस्य अल्वर्णस्य स्थाने भवति। अलः षष्ट्यन्तम् अन्त्यस्य षष्ट्यन्तं द्विपदमिदं सूत्रं षष्टिस्थाने योगः प्रथमाध्याये प्रथमपादे नवचत्वारिंशत् इत्यस्मात् षष्टिस्थाने इत्यनयोः अनुवृत्तिः अनुवृत्तिसहितसूत्रं षष्ट्या अन्त्यस्य अलः स्थाने विद्यमानः आदेशः।
अस्तु, इदानीं परिभाषासूत्राणि पाणिनेः सूत्राणां लघुत्वम् इच्छति यत्र, अतः एव अत्र मया पूर्वमेव उक्तं लघुत्वम् एव सूत्रार्थः खलु, मया उक्तं खलु कुत्र लघुत्वं भवति इति। अत्र लघुत्वम् एतत् एव सूत्रं सूत्रविषये एव अत्र लघुत्वं भवति, विश्वतो मुखम्, अनन्तरम् अर्थं भवति, सारवत् भवति, एतत् सर्वाणि दृष्टवन्तः। लघुत्वम्
अल्पात्सन्निधिं सारवत् विश्वतो मुखम्।
अनन्तरं वारवारं सूत्रेषु यत्र समानप्रकारकः सन्देशः अपेक्षते तस्य वारं वारम् आवृत्तेः स्थाने परिभाषासूत्रं पाणिनिना रच्यते। यत्र अत्र समानप्रकरणम् अस्ति, अनन्तरम् अत्र किं भवति सन्देशम्, अत्र कार्यं किं भवति, एतत् अपेक्षितमेव। अत्र एव आगत्य परिभाषासूत्राणि कार्यं करोति, अतः सः परिभाषासूत्राणि कृतवन्तः। इमानि सूत्राणि कस्यचित् सूत्रार्थस्य पूर्णाय साहाय्यं कुर्वन्ति। एतत् सूत्रेण एव परिभाषासूत्राणि एव अत्र लघुत्वं भवति, अनन्तरं पूर्णाय साहाय्यमपि कुर्वन्ति। यथा सार्वधातुक अर्धधातुकयोः इति सूत्रस्य अर्थपूर्णात्रम् एव त्रीणि परिभाषासूत्राणि अपेक्षन्ति। किं किं चेत् इको गुणवृद्धिः भवति चेत् एकः स्थाने, इदानीं दृष्टवन्तः यत्र यत्र आम् इ इ उ उ रु रु ऋ तत् स्थाने एव इकः गुणवृद्धिः भवति, गुणः वा अपि भवति, वृद्धिः अपि भवति. अत्र इको गुणवृद्धिः इत्यनेन वृद्धिः भवति, इकः स्थाने गुणः अपि भवति, इकः स्थानि भवति, षष्ठी भवति. अतः तत्र स्थानि न उक्तम्, इकः इति गुणवृद्धिः स्थानि एव, अतः तत्र स्थानि इति न उक्तम्. एतत् समीचीनतया अवगन्तुं शक्यते. अनन्तरं येन विधिः तदन्तस्य विधिः, तत् अन्तस्य एव सूचयति. किं सूत्रेण? किं सूत्रेण चेत् अत्र येन विधि तदन्तस्य किं सूत्रेण अन्तिम अच्वर्णः एव तदन्तस्य अपि भवति, अनन्तरं स्वरा अपि भवति गुणः. इदानीं दृष्टवन्तः इ इ उ उ इत्यादीनि. इदानीम् अत्र स्वं रूपं शब्द शब्दस्य आशब्दस्य संज्ञा भवति. अत्र शब्दं वा आशब्दं वा स्वं रूपम् अत्र स्वीकृत्य कार्यं करोति. स्वं रूपम् इत्यनयोः अनुवृत्तिः विभक्तिपरिणामः इत्यनेन षष्ठ्यन्तः भवति. विभक्तिः अत्र परिमाणेन षष्ठी किं भवति चेत् तत्र स्थानि भवति. अत्र स्वस्य रूपस्य इति अत्र वक्तव्यम्. अनुवृत्तिसहितसूत्रं येन विधिः तदन्तस्य स्वस्य रूपस्य एव अत्र विधिः सूचयति. इदानीं पूर्वमेव दृष्टवन्तः सार्वधातुक आर्धधातुकयोः इत्यनेन गुणकार्यं भवति. अत्र गुणः विधीयते इति वयं जानीमः एव. अनन्तरम् ईकवर्णस्य येन विधिः तदन्तस्य इति येन इत्युक्ते ईकवर्णेन एव अत्र विधिः सूचयति. अत्र तत्र गुणकार्यमपि भवति. इदानीं येन ईक्वर्णेन गुणकार्यं विधीयते तत् अन्तस्य इगन्तस्य एव शब्दस्य अपि गुणकार्यं विधीयते. तत् स्थाने एव गुणकार्यं भवति. इदानीम् अलोन्तस्य अल् एव अन्त्यस्य इ इ उ उ रु रु लु एतत् सर्वाणि स्वराणि अक्षराणि. अत्र षष्ठिविभक्तिद्वारा एव पदस्य स्थाने अन्त्यस्थाने आदेशः प्राप्तः. आदेशः अन्त्यस्थाने अल्वर्णस्य स्थाने एव अत्र प्राप्तवन्तः. षष्टिस्थानयोग अनन्तरं षष्टिस्थाने इत्यनयोः अनुवृत्तिसहितसूत्रम्. अनुवृत्तिसहितसूत्रं षष्ट्या अन्त्यस्य अलहस्थाने विद्यमानः आदेशः. यत्र अन्तिमवर्णः भवति तत् स्थाने एव अत्र षष्ट्या अन्त्यस्य स्थाने एव अलहस्थाने सर्वत्र अत्र इकः भवति. इदानीम् अत्र पूर्ववर्गे एव दृष्टवन्तः भू एचो एव प्रथमं सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भवति. ऊकारस्य स्थाने ओकारः भवति. अनन्तरम् एषो एव यावः इत्यनेन अवादेशः भवति. अतः तत्र ओ स्थाने औ आदेशः भवति. भूयोगः औयोगः आयोगः इति पूर्ण एव दृष्टवन्तः. इदानीम् एषो एव सूत्रं पठति भगिनि.
अहमेव पठामि वा अन्य कोऽपि पठन्ति वा?
कोऽपि न आगतवन्तः इतः पर्यन्तम्. किमर्थम्
भूवधिकावधिकाधिकस्य वर्णमेलने भवति इति भवति. आहत्य उपरि करोतु भगिनि, मम मोबैल् मध्ये किञ्चित् स्क्राच् अभवत् दृश्यते. उपरि करोतु किञ्चित् उपरि करोतु भगिनि. आहत्य प्रक्रिया एतादृशी भू सप् उपरि करोतु. अधः पूर्णसूत्रार्थम् अत्र उक्तः. एषो वायावः एकः ए ओ ऐ औ इत्येषां स्थाने क्रमेण ऐ औ ऐ औ इति क्रमेण उपरि नीचे यु आर् डूङ्ग् इट् डौन् इत्येते इत्यादेशाः भवन्ति अचिपरे क्रमेण इत्युक्तं यथासङ्ख्यम् अनुदेशं समानं प्रथमाध्याये तृतीयाध्याय तृतीयाध्याये दशमसूत्र इति परिभाषासूत्रस्य साहाय्येन ऐ च औ ऐ च औ ऐ औ च तेषां भगिनी किं कृताम्
एकनिमिषम्
If nobody comes, you take only for half an hour, only just for me, why do you take money?
Chacha?
Bhavad Bhagini, Parikarati, Bhuvadika, Avadika, Jeevarnanami, Sanchanam Samanam, Hita Sankhya Samanam, Iti Parivasa, Sukhasya Sahayana, Aicha, Aucha, Aicha, Aucha, Tesha, Itaretra Dvandvaha, अयवायवः एकः षष्ट्यन्तम् अवयवः प्रथमान्तम् एकपदमिदं सूत्रम् इको यणचि षष्टमाध्याये प्रथमपादे षट्षष्टिसूत्र इत्यस्मात् अचि इत्यस्य अनुवृत्तिः संहितायां षष्टमाध्याये प्रथमपादे एकसप्ततिसूत्रम् इत्यस्य अधिकारः अनुवृत्ति रहितसूत्रम् एकः अवयवः अति संहितायां भू अधिक आवधिक आधिकति भू अधिक आवधिक आधिकति वर्णानां मेलने भवति इति भवति आहत्य प्रक्रिया एतादृशी भू अधिक शप्पधिकति अशक्वति
इदानीम् एचो यवायवः सूत्रं किम् अत्र आदेशः भवति एषः इत्युक्ते ए ओ ऐ इत्येव भवति अत्र ए स्थाने किं भवति
ऐ
ऐ ऐ भवति ऐ स्थाने
ऐ
ऐ ओ स्थाने
औ औ
औ औकार ओकारस्य औकारस्य स्थाने
औकारस्य स्थाने आव्
तावदेव क्रमेण भवति एकारस्य स्थाने अयादेशः ओकारस्य स्थाने अवादेशः ऐकारस्य स्थाने आय् आदेशः औ स्थाने आय् आदेशः एतत् सूत्रेण एव अत्र अन्तिमरूपं भवति इति स्वीकुर्मः इको एनर्जि इत्यपि अत्र कार्यं करोति अनन्तरम् एतत् सर्वं अनुवृत्तिशब्दसूत्रम् अचि इत्यस्य अनुवृत्तिः संहितायां यत्र सामीप्यं भवति तत्र एव संहितायाम् अनुवृत्तिसहितसूत्रम् एचः अयवायावः अचि संहितायाम् एतदेव अत्र सादृश्यं भवति ये स्थाने अयादेशः ओ स्थाने अवादेशः ऐ स्थाने ऐ आदेशः औ स्थाने अवादेशः अत्र एतत् पूर्वमेव दृष्टवन्तः इदानीं भू इत्यनेन भो भवति अनन्तरम् एचो यव यवः इत्यनेन ओकारस्य स्थाने अवादेशः भवति अकारः अत्र शप् इत्यनेन अकार एव तिष्ठति अनन्तरं पि इति अस्माकं विवक्षा अस्ति अतः एव अन्तिमरूपं वर्णानां मेलनेन भवति इति भवति आहत्य किं किं कार्यं करोति म्यूट् करोतु भगिनि म्यूट् करोतु अत्र आहत्य प्रक्रिया एतादृशी किं भवति लशकोचते अनन्तरं हलन्त्यं तस्य लोपः तिंशत् सार्वधातुकम् अस्ति चेत् अत्र शपप्रत्ययः विकर्णप्रत्ययः भवति अनन्तरं सार्वधातुक आर्धधातुकयोः इत्यनेन इगन्तः इगन्तस्य इकः गुणः भवति भो अनन्तरम् आयोगः सी भवति इदानीम् एचो यव यावः इत्यनेन अन्तिमरूपं मेलनेन एतत् इब् इब् औ बौ भवति. आयोजनेन मव भवति. प्रथमविप् पुरुषविवक्षायाम् अस्ति, अतः ति वर्णमेलनेन एव भवति इति भवति. एतत्र पूर्वमेव वयं दृष्टवन्तः दशकृतचिते अतिंशत् सारुधातुकम् अनन्तरं मिलिचोयवायवः. एतत् मिलित्वा एव अस्माकं कृते जी जये इत्यनेन जयति इति रूपं भवति. एतत् पूर्वमेव दृष्टवन्तः गतवर्गे. इदानीम् अत्र किं भवति चेत् अस्माकं कृते एतत् अभवत् एव. इदानीम् अत्र तिंशित् च लकारस्य समा तिंशित् च लकाराणां समग्रदृष्टिः एव वयं पठितवन्तः. दशलकारः भवति एव मूलतः. अत्र विवक्षाम् अनुसूत्रे एव दशलकाराः भवति. सर्वे लकारः लिल् इत्येव भवति. लट् लोट् लङ् अनन्तरं लृट् यत्र यत्र स्वीकुर्मः तत्र सर्वत्र ल एव आगत्य कार्यं करोति. अत्र यत्र यत्र लट् लोट् लृट् सर्वत्र टकारः टित् भवति. अनन्तरं यत्र यत्र विधिलिङ्ग आशीर्लिङ्ग यत्र यत्र ञकारः भवति अत्र मित् इति इत् भवति. अतः तत्र टित् अपि भवति नित् अपि भवति. अष्टादश तिङ् प्रत्ययः वयं जानीमः एव. लकारस्य प्रत्ययं किं किं भवति चेत् लट् लृत् लङ् इत्यादि लकाराणां नामानि इति सामान्यज्ञानं भवति. यत्र लकार लकार लट् लङ् लृट् लोट् यत्र एतत् लचे इति अधिकारणे एव सामान्यज्ञानं भवति. परन्तु केवलं नामानि इति न, एते स्वयं प्रत्ययाः भवन्ति एव. प्रत्ययाः सन्ति. दशानां लकाराणां प्रत्ययः विहितः भवति एभिः सूत्रैः. अत्र किं किं सूत्रेण लकारस्य स्थाने किं भवति चेत् अग्रे पठतु. वर्तमाने लट् पूर्णिमा
म्यूट् मध्ये एव पठन्ति. वर्तमाने लट् अनद्यतने लङ् विधिनिमन्त्रण आमन्त्रण अभीष्ट सम्प्रश्नप्रार्थनेषु सम्प्रश्नप्रार्थनेषु लिङ् लोट्स परोक्षे लिट् अनद्यतने लुट् लृक्षेषे च अशिषि लिङ् लोटौ लुङ् अग्रे न दृश्यते उपरि लिङ्निमित्ते लृङ् क्रियातिपत्तौ क्रियातिपत्तौ
क्रिय अतिपत्तौ. अत्र एतत् वर्तमाने लट् अत्र प्रसन्टेन्स् अस्ति खलु. वर्तमाने लट् अनद्यतने लङ् अद्यतने नास्ति अनद्यतने. तत्र समये एव लङ् भवति. विधिः निमन्त्राणाम् अनन्तरं निमन्त्राणां एतत् सूत्रं
निमन्त्रण आमन्त्रण निमन्त्रण आमन्त्रण सम्प्रश्न प्रार्थना आज्ञा
सूत्रपाठः. अत्र किञ्चित् किं किं भवति इति दृष्टं त्रि त्रि वां शिक्षितम् अत्र अत्र विधिः अपि भवति निमन्त्रणम् अपि भवति आमन्त्रणम् आदिष्टं सम्प्रश्नः प्रार्थना. एतेषु अर्थेषु एव धातोः परः आदि उत्तात्तः आदि उदात्तः लिङ्गप्रत्ययः भवति. अत्र एव विधिः एतत् सर्वाणि त्यक्त्वा विधिलिङ्ग् इति वयं स्वीकुर्मः. अत्र विधिः भवति, निमन्त्रणं भवति, आमन्त्रणं भवति, आदिष्टं भवति, सम्प्रश्नं भवति, प्रार्थना अपि भवति. अत्र पठतु इति अधिकारतोरणया अत्र आज्ञा अपि दातुं शक्यते. अनन्तरं पठतु इति रिक्वेस्ट् अपि अस्ति विधिलिङ्गे. अत्र प्रार्थना अपि भवति.
भगिनि पठतु इति लोट्लकार पठेत् पठेतां पठेयुः इति विधिलिङ्गे.
अत्र पश्यतु अत्र अपि इदानीं भवति इति स्वीकुर्मः चेत् अत्र भूषतायां विधिलिङ्ग स्वीकुर्मः चेत् अत्र भवेत् पठेत् अत्र किमर्थं रूपद्वयं भवति चेत् अत्र जलां जशन्ति इत्यनेन दकारः भवति. अनन्तरम् अत्र सर्वत्र वा अवसाने इत्यनेन एव अत्र तृतीयवर्णस्य स्थाने दकारस्य स्थाने धकारः भवति, अतः वा अवसाने इत्यनेन भवेत् भवति. एतत् सर्वं विधिलिङ्ग इत्यनेन कार्यं करोति. अनन्तरं लोट् लोट् अपि इदानीं लोट् स्थाने किं कुर्मः चेत् अत्र भवतु भवतात् इति स्वीकुर्मः खलु. भवतु भवतात् भवतु अत्र वर्णमेलनमेव, भवतात् अपि वर्णमेलनं किञ्चित् अपि कार्यं करोति. अत्र पूर्वमेव दृष्टवन्तः किञ्चित् सार्वधातुकम् अनन्तरं सार्वधातुकः एकं स्वीकुर्मः अत्र भवतात्
भगिनि. अत्रापि जलं जलं जसुवन्ते कार्यं करोति
किम्?
अत्रापि जलां जसुवन्ते कार्यं करोति
जलां भवति अतः एव भवता इति तृतीयवर्णः स्वीकृत्य अनन्तरं वा अवसाने इत्यनेनैव तृतीयवर्णस्य स्थाने एकः प्रथमवर्णः आगच्छति कार्यं करोति अतः भवतात् इति भवति. अतः एव रूपं त्रयं भवति. भवतु इति भवतु इति स्वीकुर्मः चेत् अत्र एचो यवा यावः सार्वधातुक आर्धधातुकयोः अनन्तरम् अत्र शप् भवति अत्र अकारः भवति. ति इति कर्तरि शप् प्रथमविवक्षायां ति इति भवति, परन्तु एरुः इत्यनेनैव उकारः भूत्वा अत्र भवतु इति भवति. एरुः इति सूत्रेणैव अतः लोट्. अनन्तरं
द्वितीयसूत्रस्य नाम किं
किं किं किं प्रश्नः महोदय?
महोदय अत्र मध्ये भवती अवदत् किं मध्ये सूत्रम् एकानि अहम् अत्र न अन्यत् भवतात् भवतात् अभवत् तत्परं भवतात् अभवत्
भवतात् अत्र तात् पूर्वमेव दृष्टवन्तः खलु निपातनेन सिद्धरूपेण भवति अत्र तूतात् खलु तूतात् भवति अत्र तु तात् इति स्थाने एव अत्र प्रथमं एरुः इत्यनेन ति स्थाने उकारः भवति, इकारस्य स्थाने एरुः उ भवति. एरुः 3486 पश्यत् अत्र 3486 एरुः इत्यनेन लोट्लकारस्य विषये इकारस्य ति इत्यनेन अत्र उकारः भवति, अतः एव तु इति भवति. भवतु भवतात् भवतु भवतात् इति भवति. इदानीं लोट् कृतवन्तः परोक्षे लिट् लिट् पूर्वमेव दृष्टवन्तः यत्र द्वित्वं भवति 31115 अत्र पश्यतु. अत्र किं भवति त्रि टु भवति त्री टु वन् वन् फैव् परोक्षे लिटि मया पूर्वमेव उक्तवन्तः चङ्ग् यङ्ग् अनन्तरं लिट् सन्नन्तम् अनन्तरं किं मया पूर्वम् उक्तवन्तः खलु केचित्विषये कुत्र कुत्र धृत्वं भवति अत्र लिट् भवति अतः तत्र लिट् स्थाने स्वीकुर्मः चेत् अत्र लिट् भवतु अत्र भवति लङ् भवति अनन्तरं लोट् भवति लेट् भवति लुप्त् भवति अनन्तरं लुप्त् लिट् अत्र वयं भूसत्तायाम् इत्यनेनैव प्रथमं भू भवति अनन्तरं
मया गन्तव्यं भगिनि अद्य किमपि कुत्रापि अहं निर्गमिष्यामि
You want to leave? Okay. Atra, Bhu iti sataya meva, Bhu dhatu meva, Parantra atra litaha sthane anabhyasasya ite nena, Bhu Bhu bhavati. Maya puru mukta vantaka, liti yang sannantam etra etra bhavati, atra, किं भवति एकवर्णः द्वित्वं भवति भू भू इति द्विवारं भवति किं सूत्रेण इत्युक्ते लिटि धातोः अनभ्यासस्य अभ्यासकार्यं नास्ति परन्तु लिटि स्थाने एव भू भू इति भवति इदानीम् अत्र भुवो उग् लुङ्गि लटोः लुङ्गि यत्र भवति लट् यत्र भवति अत्र भुवः इति सूत्रेण उक् आदेशः भवति किं स्थाने अकारस्य स्थाने अतः तत्र उक् अस्ति चेत् अत्र पकारः यत् भवति ओ एतदपि उपदेशः अनुनासिक इत्यनेन यत् भवति पकार एव तिष्ठति इदानीं भू किमर्थम् अत्र भू इति भू इति किं सूत्रेण ह्रस्वः भवति चेत् ह्रस्वः इति सूत्रेण एव भू भवति इदानीं भू भू उपस्थाने वकार एव तिष्ठति योगः अ इदानीं भवतेरः इति सूत्रेण अत्र चतुर्थवर्णस्य स्थाने तृतीयवर्णः भवति भवतेरः 7473 अत्र पश्यतु 7473 भवतेरः लिट्लकारस्य भूधातोः अभ्यासस्य अकारस्य आदेशः भवति अतः एव अत्र किं भवति आदेशः भवतेरः इत्यस्य अभ्यासस्य अन्तिमवर्णस्य अकारः भवति अनन्तरम् अभ्यासे चच्छे इत्यनेन एव अभ्यासस्य ज्यष्ठं भवति चतुर्थवर्णस्य स्थाने तृतीयवर्णः भवति अतः एव ब इति तृतीयवर्णः स्वीकृत ब भू व इति बभूव इति अन्तिमरूपं दृष्टम् अनन्तरम् अनद्यतने लुट् लुट् इत्युक्ते भविता भवितारौ भवितारः इति लुट् भवति अनन्तरं लृट् शेषे च लृट् अत्र भविष्यति स्या प्रत्ययेन एव भविष्यति इति भवति एतत् नूतनसूत्रम् अत्र एकर्णप्रत्ययं नास्ति एव भविष्यति पठिष्यति यत्र स्या योजनेन कार्यं कृतम् अनन्तरं लृट् शेषे च अनन्तरम् आशिषि लिन् लोटो आशिषि आशीर्यं चित्रगत भवति चेत् आशीर्यं भवति अनन्तरं लोटो अपि एतत् कार्यं करोति अनन्तरं लुङ् लुङ् स्वीकुर्मः चेत् लुङ् कुत्र भवति यदा रैल्गाडी यदा यानं समये आगच्छति चेत् अहमत्र उपवेष्टुं शक्नोमि. यदा यत्र इफ् मोड् दट् इस् कण्डिशनल् मोड् इफ् आगत्य सर्य किं भवति अत्र यदा समये आगच्छति मया ऐ वुड् हव् गान् इत्यर्थे एव अत्र लुङ् भवति. अनन्तरं लिङ् निमित्ते लिङ् अत्र विधिलिङ्ग् निमित्ते लृङ् अपि कार्यं करोति इति एतत् सूत्राणि दृष्टवन्तः. अस्माकम् एतावता अष्टाध्याय्याः समग्रदृष्टिः मनसि अस्ति खलु. इमानीम् उपरितनानि सूत्राणि कस्यचित् अध्याये एतत् अध्यायम् इतस्तत्र अटन्ति एव सर्वाणि. अत्र अध्यायं तृतीय अध्यायमेव, परन्तु पादः अपि किञ्चित् परिवर्तनं भवति. द्वितीयपादे भवति, तृतीयपादे भवति, तृतीयपादे भवति. अनन्तरं सर्वाणि वर्तमाने लट् अनद्यतने लङ् विधिनिमन्त्रश्चना मन्त्राणा आदिष्टसम्प्रश्नप्राटनेषु लिङ् लुच् परोक्षे लिट् अनद्यतने लुट् लृट् शेषे च आचषि लिङ् लोटो लङ् लिङ् निमित्ते लिङ् भवति. एतत् सर्वाणि सूत्राणि कस्य अधिकारे अस्ति? अध्यायम् अध्यायं किं भवति? कस्य अध्यायं भवति? तृतीय अध्याये एव सर्वाणि सूत्राणि तृतीय अध्याये एव भवति. शान्ता पठतु अस्माकं.
नमस्कारः. अस्माकम् एतावता अष्टाध्यायाः समदृष्टिः मनसि अस्ति खलु. इमानि उपरितानानि सूत्राणि कस्मिन् अध्याये? तृतीया अध्याये. अतः केषां सूत्राणाम् अधिकारः?
भवती एव पठतु प्रत्येकः.
अधिकारः एप्डि पठनम्
तृतीय अध्याये प्रथमपादे प्रथमसूत्रमेव अधिकारः. एतत् प्रथमाध्याये तृतीय अध्याये प्रथमसूत्रं प्रथमपादे प्रथमसूत्र आरभ्य
चतुर्थ अध्याये पञ्चमाध्यायपादे षष्टि अधिकं शतं
एकशतं पर्यन्तं
त्रिषु अध्यायेषु यत् कस्यचित् विधानं भवति तत्र तत्र प्रत्ययः आगत्य वदति यत् यस्य विधानं सञ्जातं तस्य प्रत्ययसंज्ञा भवति प्रत्ययसंज्ञा भवति. येषु त्रिषु अध्यायेषु विधिसूत्रं यत्र यत्र भवति तत्र सर्वत्र अस्य सूत्रस्य अधिकारः.
एतत् प्रत्ययं स्वीकुर्मः. कुत्र कुत्र भवति? तृतीय अध्याये आरभ्य पञ्चमाध्यायपर्यन्तं चतुर्थपादपर्यन्तम् एव अत्र प्रत्ययः भवति. किशोर् महोदय अग्रे पठतु.
परश्च तृतीय अध्याय प्रथमपाद द्वितीयं सूत्रम् अधिकार तृतीय अध्याय
एतदपि समानमेव. अत्र तृतीय अध्याय आरभ्य पञ्चम
अध्यायपर्यन्तं येषु एव त्रिषु अध्यायेषु यत्र यस्य प्रत्ययेन प्रत्ययसंज्ञा भवति तत्र तत् परश्च इति सूत्रम् अपि उपविश्य वदति यत् अयं प्रत्ययप्रत्यये अनन्तरम् आयाति.
प्रकृतेः प्रत्ययः परच्च इत्यनेन अत्र एतदपि तत् अधिकारी एव भवति. अग्रे पठतु धातोः अपि
धातो तृतीय अध्याय प्रथमपादे एकं नवतितं सूत्रं तृतीयाध्याये कृदन्तानां तिगन्तानां च विधायकसूत्राणि भवन्ति. अस्मिन् तृतीयाध्याये धातुः सर्वत्र आगत्य वदति यतः यः कोऽपि प्रत्यय विहितः स धातुः अनन्तरं विहितः.
अत्र धातुः धातोः इत्यनेन तृतीय अध्याये कृदन्तं तिङन्तानां भवति. कृदन्तं योजनेन अत्र अस्माकं कृते प्रातिपदिकं स्वीकृतवन्तः. एतदपि कृदन्तः अपि संज्ञा भवति. अनन्तरम् अत्र प्रत्य धातोः इत्यस्य अधिकारः एव प्रत्ययः परच्च धातोः एतत् स्वीकुर्मः चेत् अत्र धातोः वेगितः किमर्थं धातोः अनन्तरं प्रत्ययः परच एतत् सर्वत्र भूत्वा तृतीयाध्याये एव सर्वम् अत्र कार्यं करोति. भवान् एव पठतु. अतः
भगिनी धातुः किं कारणे लिखितमस्ति प्रकृतिः अस्ति तु प्रकृतिधातुः अपि अस्ति एवं प्रातिपदिकम् अस्ति तत्रापि मत प्रत्यय तु परश्च कार्यं करोति अस्ति वा सम्यक् वा?
आम् सम्यक् एव.
अत्र वर्तमाने लट् तृतीयाध्याये द्वितीयपादे त्रिविंशति अधिकम् एकशतं वर्तमानार्थे धातुतः लट् प्रत्यय भवति. लट् प्रत्ययसंज्ञा भवति प्रत्यय इत्यनेन धातोः परे एव आयाति परश्च इत्येन अनुवृत्तिसहसूत्रं धातोः परश्च वर्तमाने लट् प्रत्ययः. अत्र ध्येयं यत् अनुबन्धरूपे सर्वेषां लकाराणां ल इत्येव अवशिष्यते.
धातोः परश्च धातोः परश्च वर्तमाने लट् इति प्रत्ययः स्वीकुर्मः. लट् स्थितः अन्ति इति अर्थः वर्तमाने परश्च परः धातुः भू इति अवति भवति. अनन्तरम् एतत् सर्वाणि कार्याणि कृत्वा बहु भवति. अनन्तरं वर्तमाने लट् इति स्थितः अन्ति प्रथम पुरुष एकवचनविवक्षायाम् अत्र सर्वाणि कार्याणि आगत्य अत्र अन्तिमरूपं भवति इति स्वीकुर्मः. परच्च धातोः परच्च वर्तमाने लट् इत्यादयः. अत्र यत् देयं यत् अनुबन्धलोपानन्तरमेव ति इति अस्ति परन्तु ति इति मूलधातुः नास्ति तिप् एव भवति. तिप् अत्र हलन्त्यं तस्य लोपः इत्यनेन सर्वत्र अत्र पकारस्य लोपः भूत्वा ति एव तिष्ठति. अतः तत्र अनुबन्धलोपानन्तरमेव सर्वेषां लकाराणाम् इल् इत्येव अवशिष्यते. अत्र किमर्थम् इल् इति भवति चेत् अत्र लट् टकारः युत् भवति लोट् टकारः युत्
भवति.
अनन्तरम् अत्र विधिलिङ्ग् ङकारः अस्ति ङकारः नित् भवति. आशीर्लिङ्ग् ञकारः नित् भवति. लङ् नकारः एत् भवति. यत्र अतः एव नित् अनन्तरं तित् सर्वत्र इत् भवति. अतः अनुबन्धलकाराणां सर्वेषाम् इल् एव तिष्ठति. इदानीं लकार एव तिष्ठति. पश्यतु जानाति खलु लट् लोट् लङ् विधिलिङ्ग् सर्वत्र ञकारः भवति तित् अपि भवति. इदानीं सि संज्ञकः अत्र सि इति अस्ति खलु अत्र सर्वाणि सूत्राणि सप्तमसूत्राणि पर्यन्तं भवान् एव पठतु.
चत्वारि सूत्राणि उपरि चत्वारि सूत्राणि उपदेशावस्थायां सर्वेषु रूपेषु धातुषु प्रत्ययेषु आदेशेषु आगमेषु उद्देशे जननासिक प्रथमध्याये पादे चित्रं सूत्रमस्ति सूत्रं स्वयं सम्पूर्णम् अस्ति उपदेशे अच् अनुनासिका संज्ञा भवति द्वितीयं सूत्रमस्ति हलन्तं प्रथमध्याये तृतीय पादे तृतीयं सूत्रम् अनुमित्तिसहित सूत्रम् अस्ति उपदेशे अन्त्यम् हल् तृतीयबिन्दुः अस्ति न विभक्तौ तुष्माः प्रथमध्याये तृतीयपादे चतुर्थं सूत्रम् अनुवृत्तिसहित सूत्रम् उद्देशे विभक्तो अन्त्या हल हल तुष्माः न इतः चतुर्बिन्दुः आदिरिपूर्णव प्रथमध्याये तृतीयपादे पञ्चमं सूत्रमस्ति अनुवृत्तिसहित सूत्रम् उद्देश्ये धातुः आदयः पूर्णवः इतः त्रीणि सूत्राणि उपदेशावस्थायां प्रत्ययेषु एव सः प्रत्ययस्य प्रथमध्याय तृतीयपादे षष्ठं सूत्रम् अनुवृत्तिसहित सूत्रम् उपदेशे प्रत्ययस्य आदिश इति भवति प्रत्ययस्य आदिश मुदंश अस्ति चेत् तत् इति संज्ञा भवति चूतुः प्रथमध्याये तृतीयपादे सप्तम् सप्तम् सूत्रम् अनुवृत्तिसहित सूत्रम् उपदेशे प्रत्ययस्य आदि चूतुः सप्तमं बिन्दुः अस्ति लसक्तत्विते प्रथमध्याये तृतीयपादे अष्टतम् सूत्रम् अनुवृत्तिसहित सूत्रम् उपदेशे प्रत्ययस्य आदि लसक् तद्विते अन्ते इति लोपविधि तस्य लोप प्रथमध्याये तृतीयपादे नूनं सूत्रं विधिसूत्रमस्ति अनुवृत्तिसहित सूत्रमस्ति तस्य इत लोपः
अत्र उपदेश अजि अनुनासिक वयं जानीमः अलन्त्यमपि जानीमः न विभक्तु तुष्माः यत्र भव तस् भवति तिप् तस् जि तत्र सकारस्य लोपः न भवति किमर्थम्
तिप् तस् जि तत्र
अत्र भवतः इति भवति खलु भवतः अत्र तस्
अत्र अस्ति मध्यजोके विभक्ति अस्ति चेत् तत्र तकारस्य सकारणे तवर्गस्य सकारस्य मकारस्य इति संज्ञा न भवति
तत्कारणे किं सूत्रेण सकारस्य लोपः न भवति
न विभक्तु स्मः
उत्तमम् एतत् सूत्रेण अनन्तरम् आदिर्नुतिरवः वयं जानीमः एव अत्र उपदेश अवस्थायां धातोः पूर्वम् आदिः यत् तिष्ठति एतदपि आदिर्नुतिरवः इत्यनेन अपगच्छति एतत् सूत्राणि सर्वाणि सूत्राणि उपदेश अवस्थायामेव भवति अनन्तरम् उपदेश अवस्थायां प्रत्ययेषु अपि भवति प्रत्ययेषु वयं गतवर्गे अपि पठितवन्तः शः प्रत्ययस्य इति उपदेश अवस्थायां शहस्य इति भवति अनन्तरं छुटु इत्यनेन उपदेशप्रत्ययस्य आदिः यत् भवति छुटु चकारः कुचुटुतुपु सर्वत्र कु इति स्वीकुर्मः चेत् ककारस्य पञ्चवर्णाः सन्ति अत्र सर्वत्र ऊ इति भवति खलु सर्वत्र ऊ इति इत् भवति अतः तत्र कुचुटुतुप् इति सर्वाणि अत्र वर्णानि उदित् भवति ज्ञापकम् अत्र स्मरणीयमेव उदित् कुत्र भवति चेत् कुचुटुटुप् इति यत्र स्वीकुर्मः अत्र उकारस्य इदित् भवति उकारस्य इत् भवति अतः तत्र उदित् इति स्वीकुर्मः अनन्तरं लषक्वा आसद्यते तदितं नास्ति अत्र ल शकारः ककारवर्गस्य सर्वाणि वर्णानि प्रत्ययस्य अवस्थायां सर्वाणि स्वराणि अत्र किं भवति अत्र अन्तिमप्रत्ययस्य आदिः लकारः अस्ति चेत् शकारः अस्ति चेत् कु अत्र पञ्चवर्णाः सन्ति चुटुतुपु इत्यनेन कु छु टु तत्र उकार 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 सर्वत्र इत् भवति अतः एव उदित् इति अत्र वयं स्वीकुर्मः एतत् सर्वाणि माहेश्वराणि सूत्राणि अन्तिमवर्णः सर्वत्र लोपः भवति अयुन् रुलुक् एवम् अयौच् इत्यनेन सर्वत्र अन्तिमवर्णः इत् भवति केन सूत्रेण गतवर्गे मया सूचितमेव एतत् विषये केन सूत्रेण कोऽपि शक्यते मया उक्तमेव गतवर्गे अत्र ऐवुन् इति अस्ति चेत् आदि आदिरन्तेन सहेता सः इत् भवति
आदिरन्तेन सहेता सूत्रेण अनन्तिं व्यञ्जन व्यञ्जन
पञ्चमवर्णः नास्ति अत्र ऐवुन् इति माहेश्वराणि सूत्राणि सन्ति खलु जानाति खलु माहेश्वराणि सूत्राणि ऐवुन् ऋलुक् एवोङ् ऐवुन् नकारः इत् भवति ऋलुक् ककारः इत् भवति ऐवुन् ऋलुक् एवोङ् ञकारः इत् भवति सर्वत्र अन्तिमवर्णः इत् भवति किं सूत्रेण अत्र अन्तिमवर्णः इत् भवति
आदिरन्त्येन
सः यथा आदिः अन्त्येन अन्तिमवर्णः सर्वत्र इतः भवति अतः एव इता इति भवति स्मनसि मनसि स्थापनीयं स्मरणीयमेव आदिरन्त्येन सहेता इत्यनेनैव माहेश्वराणि सूत्राणि सर्वत्र अन्तिमवर्णः इत् भवति इति अनन्तरं कुचुटु तुप् इति अस्ति सर्वत्र कु छु तु तु पु इति उकारः इट् भवति अतः तत्र कुचुटु तुपि इति अन्यपदमपि वयं स्वीकुर्मः उदित् इति एतत् मनसि स्थापनीयम् अन्यत्र कुत्रापि लेखनीयमेव अग्रे इदानीम्
अत्र आदि किं कान् लिखितमस्ति
आदि अत्र आ इ उन् ऋलुक् आ इति आदिवर्णः खलु एतत् सर्वाणि आदि आदिपदेन किमपि न भवति एव अन्त्येन सह इत् अन्त्यवर्णः एव सः इत् भवति एतत् सूत्राणि आदिरन्तेन सहिता इत्यनेन माहेश्वराणि सूत्राणि सर्वत्र अन्तिमवर्णः इत् भवति एतत् सूत्रेण एव इदानीम् अत्र तस्य लोपः एतत् सर्वं जानीमः एव तस्य लोपः प्रथमं हलन्त्यम् इत्यनेन इत् भवति परन्तु तस्य लोपः इत्यनेनैव सर्वत्र लोपः भवति वयम् एतत् जानीमः एव तस्य इतः लोपः इतः लोपः इति अत्र यथा अत्र लकाराणां प्रसङ्गे शान्ता पठतु
यथा अत्र लकाराणां प्रसङ्गे लट् लकारस्य लट् इति प्रत्ययः लट् अलङ्क्यम् प्रथमसर्गे तृतीय अध्याये
प्रथमाध्याये
तृतीयाध्याये तृतीयपादे
त्रितमं सूत्रम् इत्यनेन टकारस्य
इत्यनेन दकारस्य उपदेशे जनुनासिक इत् प्रथमपादे द्वितीयपादा द्वि सूत्रेण
प्रथमाधिकारे प्रथमाधिकारे प्रथमाध्याये
प्रथमाध्याये
तृतीयपादे
तृतीयपादे द्विसूत्रेण इत्यनेन अङ्कारस्य इत्संज्ञां तस्य लोपः प्रथम अध्याये तिस्रपादे तृतीय अध्याये तृतीयपादे नवसूत्रे नवसूत्रे इत्यनेन ञकार अकारयोः लोपः ल इति अवशिष्यते
इदानीमेव मया उक्तं लट्
अकाराणामपि
एकनिमिषम् इदानीं मया उक्तमेव लट् लोट् लङ् लट् लोट् लृट् यत्र यत्र टकारः 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 भवति टकारः इति भवति. अनन्तरम् अत्र लटो इति अस्ति, अत्र लोटो लकार उत्तरवति अकारः, अनन्तरम् उपदेश अनुनासिक इत्यनेनैव अत्र इति भवति. पूर्णतया अत्र तस्य लोपः इत्यनेनैव अत्र लोपः. अग्रे पठतु. लङ् अपि तादृशमेव, लङ् लकारस्य लङ् इति प्रत्ययः. पठतु. शान्ता अस्ति वा? योगेन्द्रमहोदय पठतु.
लङ् हलन्तं सूत्रमस्ति इत्येन कवर्गस्य नकारस्य संज्ञा उद्देशे जननासिक इत्यनेन अनुनासिक अकारस्य संज्ञा तस्य लोप इत्येन नकारस्य अकारस्य लोप भवति. अवशिष्यते.
इदानीमेव मया उक्तं लट् लोट् लिट् लुट् यत्र यत्र अन्तिमवर्णः टकारः टकारः इति भवति हलन्त्यम् इत्यनेन. अनन्तरम् अत्र पूर्णतया अत्र इति भवति तस्य लोपः इत्यनेन. एवमेव सर्वेषां लकाराणामपि तादृशमेव कार्यं भवति. इदानीं लकारप्रत्ययानाम् अनुबन्धरहितरूपम् इदानीम् अतः एतत् सर्वं दृष्ट्वा अस्माभिः अवगम्यते यत् यद्यपि दशलकारः सन्ति तदापि अणुवन्तलोपानन्तरं सर्वे इल् एव तिष्ठति. लट् टकारः लोपः, इङ् लोपः, लिङ् ञकारः लोपः. अतः तत्र तित् भवति ङित् भवति. यत्र यत्र ञकारः लिङ् लङ् आशीर्लिङ् लुङ् तत्र ञकारस्य लिट् भवति, नकारस्य इत् भवति. यत्र यत्र लट् लोट् लिट् लुट् तत्र सर्वत्र टकारस्य इत् भवति. एतत् मनसि स्थापनीयमेव दशलकाराः विषये. ध्येयं यत् पठतु, भवानेव पठतु.
ध्येयं यत् आरभ्ये लट् लङ् इत्यादयः विभिन्नलकाराः दृश्यन्ते अतः तत्र भेद इत्येव तिष्ठति. किन्तु अनुबन्धान्तरं ल इत्येव अवशिष्यते इति कृत्वा सर्वेषाम् अभेदः अनेन अतीव लाभं सूच्यति. यतोहि अग्रे एकेन एव सूत्रेण लस्य सर्वेषां लकाराणां स्थाने प्रत्यादेश लादेश.
इदानीम् एव दृष्टवन्तः सर्वत्र टकारः 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 इति भवति. अनन्तरं लिङ् मध्ये ञकारः, आशीलिङ्ग् मध्ये ञकारः, लुङ् मध्ये ञकारः, नृङ् मध्ये ञकारः, एतत् सर्वाणि गच्छति एव. अतः ला एव तिष्ठति. अतः एव अत्र लस्य इति सर्वेषां स्थानानां लस्य एव वयं स्वीकुर्मः खलु. अत्र शान्त अन्तिमश्लोकं वदतु. ॐ पूर्णमद
ॐ पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरिः ओम्. ॐ श्रीगुरुभ्यो नमः.
मम एकः प्रार्थना अस्ति. एतत् षड् सार्धवादने सार्धषड्वादने आरभ्य सार्ध सप्तवादनपर्यन्तम् एक वादनम् एव अत्र वयं पाठः अत्र चलन्ति. मम अत्र क्लेशः शरीर उपाधि अस्ति अतः एव किञ्चित् समये आगन्तुं शक्यते चेत् उत्तमं भवति. अस्तु. इदानीं लाधिकारः लाधिकारः इति अस्ति. ल अधिकारः किमर्थं चेत् अत्र सर्वत्र टकारः ञकारः इति भवति अतः तत्र सर्वत्र लस्य इति एव भवति अतः एव लाधिकारः इति अग्रे आगच्छति इदानीं लाधिकारः इति वयम् अग्रिमपाठे अग्रिम अग्रिमविषये वयम् अत्र स्वीकुर्मः करोमि अपि अत्र एतद् विषये सर्वेभ्यः नमस्कारः धन्यवादः शुभदिनं भवतु
धन्यवादः सुप्रभातं
नमस्कारः
सुप्रभातं
नमस्कारः
नमस्कारः